हरिः ॐ यतो वाचो निवर्तन्ते अप्राप्यपदसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतगुं हवावनतपति किमहगुं साधुना करवम् किमहं पापमकरवमिति स य एवं विद्वानेते आत्मानग् स्पृणुते उभेक्ये वैष एते आत्मानग् स्पृणुते य एवं वेदा इत्योपनिषत्।